सर्वेभ्य नमस्कारः। सिद्धान्तकौमुद्याः फलन्तपुञ्जलप्रकरणे चतुर्दशः पाठः, अक्टोबर् मासस्य सप्तदशः दिनाङ्कः। येनाक्षरसमं नायम् अधिगम्य महेश्वरात् कृष्णं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं च प्रणतोऽस्मि मुनित्रयम्। मुनित्रयं नमस्कृत्य तदस्तीश्वरिभाव्यत अय्याकरणसिद्धान्तकौमुदीहं विरच्यते। अनन्तपुल्लिङ्गेषु नकारान्ताः पुल्लिङ्गाः अधीताः। झकारान्ताः भकारान्ताः वा न सन्ति, शब्दाः एव न सन्ति। एवं घढधष् इत्यत्र घकारान्ताः ढकारान्ताश्च न सन्ति, अतः अग्रे भकारान्ताः पुल्लिङ्गाः उच्यन्ते। झकारान्तः पुल्लिङ्गः बुध् शब्दः, बुध शब्दः बुध अवगमने इति धातोः कुत् प्रत्ययान्तः। बुध्यति इति बुध्, ही हु अण्डर्स्टाण्ड्। बुधः इति यः यत् पदमस्ति पण्डितपर्यायः, तस्य नेमार्थे बुध् इत्यपि भवति। भष्भावः जस्वसत्त्वे इति उक्तं दीक्षितैः। भष्भावः केन सूत्रेण, सूत्रमस्ति भष्भावः अनन्तपुल्लिङ्गप्रकरणस्य आदौ अधीतं दुः इत्यादिषु शब्देषु। एकादो वशो भष् झषन्तस्य दुभोः, एकात् झषन्तः यः धातुः सदवयवस्य वशः स्थाने भष् स्यात् इति उक्तार्थः। कदा भवति भष्भावः, वाट् आर् द कण्डीशन् फार् भष्भाव। एकात् भवेत्, धातुः भवेत्, तत्र बश्वर्णः भवेत्, तस्य स्थाने भष्वादेशः भवति। किन्तु कदा भवति, अदर् देन् देट्, कस्मिन् परतः, वेन् फालोड् बै वाट्। सकारे ध्वशब्दे पदान्ते च, सकारे परे ध्वशब्दे परे पदान्ते च भष्भावः भवति। इदानीं बुध् स् इत्यस्ति, वस्तुतः अत्र सकारस्य परकत्वम् अस्ति, सकारः परतः अस्ति। किन्तु इदानीमेव भष्भावं कर्तुं न शक्नुमः, यतः भष्भावविधायकं सूत्रम् एकाशो वशो भष्यति सूत्रं त्रिपाद्यां वर्तते। आदौ सकारस्य लोपः करणीयः, हल्याभ्यो दीर्घास्तिकृतं हल् इति सूत्रेण सुप्रत्ययस्य लोपः क्रियते। लोपे कृते पदान्तत्वम् आयातं, सुखिङन्तं पदं सत्ये लक्षणेन सुप्रत्ययम् आनीय सुखिङन्तं पदम् इत्यनेन पदसंज्ञा भवति। पदान्तत्वात् इदानीं भष्भावः एकाशो वशो भष् झषन्तस्य स्भोः त्रिपाद्यामस्ति, किन्तु सूत्र एकं त्रिपादी यु विल् नाट् बि एबल् टु अप्लै बिफोर् डिलीटिङ्ग् द सकार। एकात् धातुः बुध् इति धातुः तदवयवस्य बशः नाम बकारस्य स्थाने भष् नाम चतुर्थवर्णः भकारः आदेशो भवति बुध् इति कृतम्। ततः जष्ट्वं जलां जिषोन्ते इत्यनेन जष्ट्वे भू लृ भकारस्य स्थाने दकारः। सत्त्वं सत्त्वं केन सूत्रेण, त्यक्तुं केन सूत्रेण भवति? एकं तु खरिचायते भवति, खर्परकत्वं यदि अस्ति तर्हि खरिचायतेन तत्त्वं, तदभावे वावसाने अवसाने विकल्पेन तत्त्वं भवति इति विकल्पेन दकारस्य स्थाने दकारे कृते भुत् भुद् भुद् भुत् इति रूपद्वयं प्रथमाविभक्तौ एकवचने. बुधौ बुधः अजादिषु प्रत्ययेषु परेषु किमपि न भवति. भुद् भुद् बुधौ बुधः बुधं बुधौ बुधः बुधा बुद्भ्याम् इति उच्यते. बुध शब्दात् भ्याम् इत्यस्मिन् परे कालिश्व सर्वनामस्थाने इत्यनेन पदसंज्ञा भवति. परान्तत्वात् पुनः एकादो वशो पश्यति भक्ष्भावः बुध् इति जातम्. सदां दशमन्ते इत्यनेन चक्रे बुद्भ्याम् चक्रस्य निमित्तं नास्ति, यतः चक्रं न भवति. बुधा बुद्भ्याम् बुद्भिः बुधे बुद्भ्याम् बुद्धः इत्यादि. अजादिषु प्रत्ययेषु न भवति, अनादिषु प्रत्ययेषु परत्वात् भष्भावः भवति. भुत्सु इति सप्तम्येकवचने पदान्तत्वात् पुनः भष्भावः. जस्त्वम् खर्परकत्वात् खरित इत्यनेन सकारपरकत्वात् तत्त्वमपि भवति. बुद्धु बुधा बुधि बुधोः बुद्धु इति रूपाणि. This is very simple, except Bhashbhava, there is no other career which is happening in the entire Shabda. Iti Dhakarantaha, this is the only Dhakaranta word, or only kind of Dhakaranta word which can be derived. If there are other Dhakaranta Dhatus, you can derive similar words, Prakriyata Evameva Bhavati, Rupanyati Evameva Bhavani. Tataha Jakarantaha Pullingaha, Uchyanta. आदौ जकारान्तः पुल्लिङ्गः युज् शब्दः. युजर् योगे इति धातुः. योग जायिन् आक्टिवि असोसियेटेड् योग इति शब्द एव अनेन एव धातुना निष्पन्नः. युजुर्योगे इति धातुः शब्दस्य निष्पत्तिः कथम् युज् शब्दस्य इति आदौ दर्शयति. ऋत्विग्रहक्रस्तिगुष्णिरंसु इति चिन्तांश इति सूत्रम्. पदद्वयमेव एकं दीर्घं समस्तपदं सकारः. ऋत्विग् दधृग् स्रग् जिग् उष्णिग् अञ्चु युजि किञ्चां च इत्यस्ति. एतेषां सर्वेषां किमपि कार्यं विधीयते. किं कार्यम् इच्छामश्चेत् धातोः इत्यपि क्रियते. ऋषो मदके क्लिन् इति सूत्रात् क्लिन् इति अनुवर्तते. क्लिन् इति प्रत्ययः. जस्ट् लैक् यु हव् क्लिप् यु हव् अनदर् प्रत्यय इट् इस् काल्ड् क्लिन्. कर्तृत्वे एव क्लिन् इति प्रत्ययः क्रियते धातुभ्यः. एभ्यः क्लिन् स्यात् इति सूत्रार्थः. तत्र युज् धातुरपि अस्ति. युजि इन् द लिस्ट्. अतः युज् धातुः क्लिन् कर्तृत्वे क्लिन् प्रत्ययः भवति इति सूत्रार्थः. अलाक्षणिकमपि किञ्चित् कार्यं निपातनान् लभ्यते इति उक्तं दीक्षितैः. अस्मिन् सूत्रे सर्वे धातवः न निर्दिष्टाः. अञ्चु इज धातु, युजि इज धातु, करेक्ट्. बट् ऋत्विक् दधुक् एक्सेट्रा क्रद् जिग् एक्सेट्रा आर् नाट् प्लेन् धातु. केवलं धातवः न सन्ति. धातुभ्यः प्रत्ययं कृत्वा किमपि कार्यं कृत्वा अत्र निपात्यन्ते. को नाम निपातनम्? किं नाम निपातनम् चेत् सिद्धस्वरूपस्य निर्देशः निपातनम्. पूर्वमपि अधीतम् यत्र केवलं प्रकृतिम् अनिर्दिश्य सिद्धं रूपमेव निर्दिशति पाणिनिः, तत्र निपातनम् इति उच्यते. सो हि गिव्स् अ रेडिमेड् फार्म् इन्स्टेड् आफ् गिविङ्ग् अ प्रकृति. फार् एक्साम्पल् देर् इस् कपल् आफ् धातुस् विच् हि इण्डिकेट्स् हियर्, बट् अदर् देन् दट् हि इस् आल्सो इण्डिकेटिङ्ग् अ फ्यू रेडिमेड् वर्ड्स्. ऋत्विक् ऋत्विक् क्रक् दिग् उष्णिग्. All of these are ready-made words. They are derived from dhatu, but there has been some karya which is happening in between, and he has indicated the ready-made form. Kimartham tatha iti chete, uchyate, alakshanikam api kinchit karyam nipadanan labhyate. Yadi kevalam dhatuhu labhishyate, tada anena sutrena kim bhavati, kevalam ayam pratyaha vishiyate. प्रत्ययविधानानन्तरं किं का प्रक्रिया इति चेत् अन्यैः सूत्रैः प्रक्रिया निर्वह्यते निरुच्यते. सो वन्स् दिस् सूत्र इफ् सिङ्गल् प्रकृति इस् इण्डिकेटेड् द सूत्र विल् ओन्ली मैनेज् दट् पर्टिक्युलर् प्रक्रिया एण्ड् इट् विल् रेस्ट. सो वट् एवर् हेपन्स् नेक्स्ट् शुड् हेस् टु बि टेकन् केर् बै अदर् सूत्रस्. What happens is in some cases there are no sutras which can operate to give the desired form using the prakriti and pratyaya. Udaharanartham rutvidh ityasti jakarah asti jakarasya sthane atra gakarah nipatitah kutvam nipatitam katham kutvam bhavati iti cheta sutra vidhayakam sutram nasti. There is no sutra which can give you that kutva there. This is just an example. यदि केवलं धातुः निर्दिश्यते तर्हि अग्रे कार्यं कारयितुं सूत्राणि न भवन्ति कदाचित्. तदा पाणिनिः किं करोति, साक्षात् निपातनं करोति. तर्हि डिरेक्ट्लि गिव्स् अ रेडिमेड् फार्म्. वाट् इस् द अड्वाण्टेज् आफ् अ निपातनम्? अलाक्षणिकमपि किञ्चित् कार्यम्. लक्षणानि नाम सूत्राणि, लक्षणं नाम सूत्रं, लक्ष्यलक्षणे व्याकरणं, व्याकरणं नाम लक्ष्यं नाम प्रयोगः, लक्षणं नाम सूत्रम्. व्याकरण इस् संथिङ्ग् विच् डील्स् वित् सूत्रा एण्ड् प्रयोग. सो लक्षणानि नाम सूत्राणि, तद्विहितं कार्यं लाक्षणिकं. सूत्रेण यत् कार्यं विधीयते तत् लाक्षणिकम् इति उच्यते. अलाक्षणिकमपि किञ्चित् कार्यं सूत्रेण अविहितम्. सो इफ् देर् इस् नो सूत्र टु टेक् केर् आफ् अ पर्टिक्युलर् कार्य, तादृशं किञ्चित् कार्यं निपातनात् लभ्यते. यदा निपातनं क्रियते तदा तत् कार्यं भवितुमर्हति. निपातनात् कुत्वं, निपातनात् द्वित्वम् इत्यादि उच्यते. सो एनी कार्य विच् यु नीड् टु फिल् अप् द ब्लाङ्क्स्, देर् आर् सम् कार्य वेन् यु आर् डिरैविङ्ग् प्रकृति एनी वर्ड् फ्रम् प्रकृति एण्ड् प्रत्यय, देर् मैट् बि सूत्रस् फार् सम् कार्यस् एण्ड् सूत्रस् मैट् बि मिस्सिङ्ग् टु ब्रिङ्ग् अबौट् सम् चेञ्जस्. सो इफ् दट् वर्ड् हेस् बीन् गिवन् एस् अ निपातन, इफ् पाणिनि हेस् गिवन् इट् एस् अ रेडिमेड् फार्म्, आल् दस् ब्लाङ्क्स् विल् बि फिल्ड् अप् बै द सेम् सूत्र विच् गिव्स् टु निपातन. देर् फोर् इफ् यु आर् ट्रैङ्ग् टु से डिरैव् दट् you have drishu dhatu, so from the dhatu till you get to dadhat, in the prakriya wherever there is a blank, where there is no sutra which can bring about the transformation, anena sutrena nipatanan bhavati iti uchyate. Alakshanika vati kinchit karyam nipatanan labhyate. Into yudhu dhatoho vishaye tadrishaha kleshaha nasti, yudhu dhatoho vishaye saksha prakriya kriyate anyani karyani kriyante. Nirupa padat yudhehe krina. निरुपपदात् नाम केवलं युजुधातुः वित् नो नथिङ्ग् प्रिसीडिङ्ग् इट्. द प्रीवियस् केसस् वेर् यु हाव् से देर् मैट् बि सम् उपपदात्. से फार् एक्साम्पल् इत्युक्ते कुम्भकृत् इत्युक्ते कृधातोः कुम्भ इति उपपदं विद्यते. अत्र तथा नास्ति. निरुपपदात् उपपदरहितात् युजेः नाम युजि युजुर्योगे इति धातोः क्विन् प्रत्ययः क्रियते. कनावितौ क्विन् इत्यत्र ककारस्य नकारस्य वस्तुतः इकारस्यापि इत्थम्य अस्ति. युज् क्विन् ऋत्विक् पृथक् प्रज्ञुष्णिगञ्च युजि कृञ्च इति सूत्रेण क्विन् प्रत्ययः इत्थम्य. ककारस्य लशक्वतुध्यते इति इत्थम्य, नकारस्य हलन्त्यमिति इत्थम्य, इकारस्यापि वस्तुतः इत्थम्य अस्ति उपदेशजननासिक इति. तस्य लोपः इत्यनेन सर्वेषां लोपे युज् वकारः शिष्यते. वकारस्य वस्तुतः लोपः करणीयः इति आलरेडि सीन् पूर्वत्रापि यदा शब्दनिष्पत्तिः कृता तस्मिन् वकारस्य लोपः भवति. किन्तु दीक्षितैः सिद्धान्तकौमुद्याम् इदानीं तत् सूत्रं प्रतीयते. सो वि हेव् आलरेडि यूस्ड् द सूत्र इन् मेनि केसेस्, बट् दीक्षित इन्ट्रोड्यूसेस् द सूत्र इन् दिस् पर्टिक्युलर् केस्. Why he introduces here is because so far he has not needed to give the nishpatti. Sabda nishpatti hi maya utta sadasit out of interest, kintu actually according to prakriya he has not needed to give the nishpatti of any word. He has directly started from the pratipadika. Atra tu aprakshyate ayam krim pratyayantaha iti jnatavyam bhavati. So there is a significance in this being the krim pratyayanta. That is why he is trying to give the derivation of how we are getting the pratipadika from the dhatu. Yuj vu isasthite krudatin iti sutram paradvayam asti krut atin. सम्या सूत्रम् कृत् सम्या विधायकम् सूत्रम् सर्वत्र कृदन्ताः कृदन्ताः इति उच्यते किं नाम कृत् इति प्रश्ने कृत् सम्या अनेन सूत्रेण विधीयते प्रत्ययः इत्यधिक्रियते धातोः इत्यपि अधिक्रियते सन्निहिते हस्त्यधिकारे किं भिन्नः प्रत्ययः कृत् सम्यः स्यात् इति सूत्रार्थः सिंहिनः अतिङ् कृत् इत्येव सिंहिनः प्रत्ययः कृत्सम्यः स्यात् एनिथिङ्ग् विच् इस् नाट् किङ् इस् कृत् धात्यधिकारे इन् द धातोः इत्यधिकारे कृत् इस् अमङ्ग् प्रत्ययस् विच् आर् गिवन् फार् धातु अदर् देन् किङ् एव्रिथिङ्ग् एल्स् इस् कम् अण्डर् द ब्राकेट् आफ् कृत् सन्निहिते धात्यधिकारे इत्यपि उच्यते तस्मिन्नेव तृतीयाध्याये त्रयः धात्वधिकाराः सन्ति त्रि धातोः अधिकाराः धातोरेकाचोहलादेः इत्यत्र एकः धात्वधिकारः अस्ति धातोः कर्मणः इति सूत्रात् एकः धात्वधिकारः केवलं धातोः इति तृतीयः त्रि धात्वधिकारः इन् द सेम् चाप्टर् दिस् इस् द लास्ट् वन् सन्निहिते धात्वधिकारे इन् द नियरेस्ट् धात्वधिकार विच् इस् 3191 इट् इस् स्टार्टिङ्ग् फ्रम् 3191 And this goes on till the end of the third chapter. Tritiyadhyayasya samapti paryantam ayam dhatyadhikara asti. Asmin adhikare, among pratyayas which are mandated in this particular adhikara, all pratyayas which are not in belong to krut. Sin pratyaya vidhayakam ekameva sutram asti, jitkabhi sikhastha ityarena, tadvihaya anye sarvayatu pratyayaha krut pratyayaha. So there are only two major kinds of pratyayas which are mandated for dhatu. One is thing and one is kriti. Other than this, before this dhatvadhikara, there are a few pratyayas, which are the vikarana pratyayas. So, they are the third category. Forgetting those, if you leave the vikarana pratyayas, which fall outside this adhikara. That is why they are not called kriti. Since they fall beyond or outside, before this adhikara. Other than that, when you consider pratyayas which are added to dhatu, almost everything happens to be a krut pratyaya, other than the kin suffixes. Now, kin pratyaya dhatvadhikare eva vihitaha, the six vibhaktityadina, satyati krut iti samya asti. This vinaha krut iti samya bhavati. Tataha, vera prakrasya iti sutram, padadvayam vidyate vehe aprakrasya. Lopo viyor vali ittataha lopaha iti eno vartata. अपृक्तस्य वस्य लोपः स्यात् अपृक्तः यः वकारः वकारस्य लोपो भवति इत्यर्थः रेहे इति तु इट् इस् यूजुवलि अ पार्ट् आफ् क्विन् क्रिस् एट्सेट्रा यूजुवलि रेहे किन्तु वकारस्य एव लोपः क्रियते वि इत्यस्य लक्षणं न भवति इकारस्य सर्वत्र इत्सम्यया लोपः भवति वकारस्य वेरपुत्रस्य इत्यनेन लोपः अपृक्तः नाम कः वाट् इस् अपृक्त single letter. A pratyaya which consists of a single letter is called apratta. What is the sutra? Kim sutram? Apratta samya vidhayakam sutram kim? अपृक्त एकाल् प्रत्ययः अपृक्त एकाल् प्रत्ययः इति सूत्रम् एकाल् प्रत्ययः एकः अल् इत्यतत् अल् नाम वर्णः यस्मिन् प्रत्यये एक एव वर्णः भवति सः अपृक्तः इति उच्यते तत्र क्लिन् इत्यत्र वकारस्य एक एव वकारः एक एव वर्णः ప్రత్యయ క్రియతే ప్రథమైకవచనే నుమ్ ఆగమః నిజతోంత్యాత్పరః ఇత్యనేన అంత్యాగతః పరః నుమాగమః ఉకారాత్పరః నకారాగమః యు ను ది సు ఇది భవతి సులోపః హల్దేభ్యో దీర్ఘాం సుదిష్ట కష్టం హల ఇత్యనేన ప్రత్యయస్య లోపః యు ను ది ఇత్యస్య సంయోగాంతస్య లోపః ఇత్యనేన జకారస్య అపి లోపః సంయోగాంతం యత్ పదం సదం తస్య లోపః స్యాత్ ఇది సూత్రార్థః యు నుజ్ ఇత్యస్య పదత్వం అస్తి ప్రత్యయస్య లోపే కృతే సత్యవంతం పదం ఇది పదత్వం పదాంతే ఇది సంయోగః అస్తి నకార గతయోః సంయోగః తత్ర అంత్యస్య నామ జకారస్య లోపః యు ను ఇది జాతం అగ్రే కిం ప్రత్యయస్య కుః పదద్వయమస్తి కిం ప్రత్యయస్య కుః ఇది పదస్య ఇది అధిక్రియతే సలాం దశోంతరస్యతః అంతే ఇది అనువర్తతే కిం ప్రత్యయః యస్మాత్ నమ కిం ప్రత్యయాంతస్య కిం ప్రత్యయః యస్మాత్ సః కిం ప్రత్యయః ఏ పదం ఇస్ ఎండింగ్ ఇన్ కిం తస్య కుః నమ కవర్గః అంతాదేశః స్యాత్ పదాంతే పదాంతే తస్య అంత్యస్య అంతిమవర్ణస్య స్థానే కవర్గస్య వర్ణః ఆదేశః భవతి ఇది సూత్రార్థః అత ఏవ కిం ప్రత్యయాంతః దట్ ఇస్ వై యు నీడ్ టు నో ద నిష్పత్తి ఆఫ్ యుజ్ యు నీడ్ టు నో దట్ ఇట్ ఇస్ కిం ప్రత్యయాంత సో ఓన్లీ దెన్ వుడ్ యు నో దట్ ఐ మీన్ వుడ్ యు బి ఏబుల్ టు అప్లై దిస్ పర్టికులర్ సూత్ర అత ఏవ నిష్పత్తిః దర్శిత నస్య పుత్రేణ అనువాసికో నకారః ఇదానీం యున్ ఇత్యస్తి కిం ప్రత్యయాంతః తస్య కుత్రం కరణీయం నకారస్య స్థానే కవర్గాక్షరః ఇత్యుక్తే అంతరతమ్యాత్ అనునాసికః నకారః ఆదేశః భవతి యున్ ఇది ప్రథమైకవచనే రూపం సర్వత్ర ఏకవచనే యున్ ఇది రూపం భవతి నష్టావదాంతస్య ఇది నోనస్వారః పరసవర్ణః తస్య అసిద్ధత్వాత్ చోః కుః ఇది కుత్వం న ఇందౌ ఇందౌ ఇది రూపం సాధనీయం యుజ్ ఔ ఇత్యస్తి యుజే అసమాసే సర్వనామస్థానే పరే నుమాగమః ఇత్యుక్తత్వాత్ అత్రాపి నుమాగమః భవతి యు ను జి ఔ ఇది నకారాగమః నష్టాపదాంతస్య ఝలి ఇది నుమః అనుస్వారః నష్టమస్య చ అపదాంతస్య ఝలి పరే అనుస్వారః స్యాత్ ఇత్యతే అతః నకారస్య స్థానే అనుస్వారే కృతే యుంజ్ ఔ తతః పరసవర్ణః కేన సూత్రేణ పరసవర్ణః సూత్ర పరసవర్ణం अनुस्वारस्य ययि परसवर्णः ययि वर्णे परे अनुस्वारस्य परसवर्णः भवति इत्यनेन अनुस्वारस्य स्थाने परसवर्णः कृतः युञ्जौ परसवर्णः नाम जकारस्य सवर्णः स्थानसंज्ञात नासिक्यं यस्य अस्ति तदेव भवति न्यकारः अनुस्वारस्य स्थाने न्यकारादेशे युञ्जौ इति जातम् अत्र प्रश्नः युञ्जौ इति स्थिते चोक्कुः इति सूत्रमस्ति अग्रे एव पठामः सवर्गस्य सवर्गः स्यात् झलि पदान्ते च इति सूत्रार्थः झल्वर्णे पदान्ते च परे सवर्गाक्षरस्य स्थाने कवर्गाक्षरः आदेशः भवति अत्र ण्यकारः अस्ति ण्यकारः सवर्गाक्षरः तस्य जकारे नाम झल्वर्णे परे पदान्तत्वं तत्र नास्ति झलि परतः अस्ति ण्यकारस्य जकारे परे किं भवति कुत्वं भवति नाम कवर्गाक्षरः आदेशः भवेत् तद् भवति वा इति प्रश्नः चोक्कुः इत्यनेन ण्यकारस्य स्थाने नकारः भवति वा इति प्रश्ने तस्य असिद्धत्वात् इति उच्यते पश्यन्तु नष्टापदान्तस्य झलि इति 83 अनुस्वारस्य परसवर्णः 84 चोक्कुः इति सूत्रं तु तृतीय अष्टमाध्यायस्य द्वितीयपादे एव अस्ति अतः चोक्कुः इति सूत्रं प्रति अनुस्वारोऽपि असिद्धः परसवर्णोऽपि असिद्धः चोक्कुः डस् नाट् नो दट् देर् हेस् बीन् परसवर्णः देर् इस् नकार हियर् दट् इस् वै इट् केनाट् आपरेट् टु गिव् नकार अत एव कुत्वं न भवति युञ्जौ इत्येव रूपम् रूप विल् रिमेन् एस् युञ्जौ युङ् युञ्जौ सुन् प्रत्ययस्य कुः इति तु न भवति पदान्तत्वं नास्ति नो पदान्त दट् सूत्र विल् नाट् अप्लै चोक् कुः विल् आल्सो नाट् अप्लै सिन्स् इट् इस् नाट् सिन्स् द यकार इत्सेल्फ् इस् असिद्ध जकारस्य तु कुत्वं न भवति झल् परकत्वं वा पदान्तत्वं वा नास्ति Since it is neither followed by jhal nor at the end of a pada, the jakara will not get kutva, the nya will also not get kutva because it is asiddha. So yun, yunjau, yunjaha. Yunjam, yunjau. Saranamasthane sarvatra yudera samase iti numagamaha bhavati. Tataha shas pratayat yudu as rupam visargaha yudaha. Saranamasthana bhavata numagamaha na bhavati. केवलम् नो कार्य जायिन् पकृति अण्ड् प्रत्यय युजा युग्भ्याम् युज् भ्याम् इत्यस्ति अत्र क्लिन् प्रत्ययस्य कुः पदत्वमस्ति स्वादिष्टसर्वनामस्थाने इति पदत्वे पदान्तत्वात् क्लिन् प्रत्ययस्य कुः इत्यनेन कुत्वे जकारस्य स्थाने गकारः आदेशः युजा युग्भ्याम् युग्भिः इत्यादीनि रूपाणि युजे युग्भ्याम् युद्धः इत्यादि अन्ते युजि युजोः किं भवति सप्तमी बहुवचने किं रूपम् युजा युग्भ्यां युग्भिः युजे युग्भ्यां युद्धः युजः युग्भ्यां युग्भ्यः युजः युजोः युजा युजि युजोः किं रूपम् advantages knowing prakriya. Even if you have never heard the shabda before, you should be able to give the rupa. Kim rupam bhavati? Just apply the sutra and you will get there. Yukshu. Prakara. What is the prakriya? चोक् कुः विल् नाट् अप्लै क्विन् प्रत्ययस्य कुः नाट् ए स्टडी चोक् कुः अस्मिन् फर् दिस् शब्द इट् हेस् टु बि क्विन् प्रत्ययस्य कुः बिकास् इट्स् क्विन् प्रत्ययान्तर् ओके दे हेव् युज् सु क्विन् प्रत्ययस्य कुः इत्यनेन कुत्वे गकारः युग् सु ओके देन् आदेशप्रत्यययोः युग् षु इन् कवर्गाभ्यां परस्य षत्वम् करित इत्यनेन गकारस्य स्थाने ककारे युक्षु युजि युजोः युक्षु इति रूपम् असमासे किम् युजेः असमासे इति उच्यते असमासे एव युज् इत्यस्य अनुमागमः भवति सर्वनामस्थाने परे। तर्हि समासे किं भवति? जकारान्तस्थलिङ्गः सुयुज् शब्दः, युङ्क्ते इति युज् इति प्रथमं, सुयुज् इत्यत्र शोभनम् इति शोभनं युङ्क्ते इति कर्तृत्वे सु इत्यनेन सह समासः। समासे किमस्ति? नुमागमः न भवति। युजेः असमासे इति कृत्वा नुमागमः नास्ति। सुयुज् इत्यस्मादपि क्लिङ्प्रत्यये सुयुज् इति प्रातिपदिकं निष्पद्यते, नुमागमः न भवति। सन्धि किं भवति? युज् सुयुज् सु इत्यस्ति, सुप्रत्ययस्य लोपे कृते सोः कुः इति इदानीं सूत्रम्। पदद्वयं चोः कुः, पदस्य इत्यधिकारः, झलोझलि इत्यतः झलि इति अनुवर्तते, कोस्तयिमवाद्योरन्ते च इत्यनेन अन्ते इति च अनुवर्तते। सवर्गस्य कवर्गः स्यात् झलि पदान्ते च। चु कु इत्येतयोः सवर्गः कवर्गः इति कथमर्थः? हौ डु वि से द चु इस् सवर्ग एण्ड् कु इस् कवर्ग? अणुदित् सवर्णस्य चाप्रत्ययः। अण् उदित् उदित् विधीयमानः अण् उदित् च सवर्णस्य संज्ञा स्यात् इति उच्यते। कुचु तु तुपो एते उदितः इति संज्ञाप्रकरणे अधीतम्। सो वेर् द उकार इस् इत् इट् गिव्स् इट् इट् केरीस् वित् इट् आल् इट् सवर्णास्। रेवच्छ इत्यनेन छु इत्यनेन सर्वस्य सर्वाणि अक्षराणि दृश्यन्ते, सर्वे वर्णाः दृश्यन्ते। सवर्गस्य स्थाने कवर्गः आदेशः स्यात् झलि पदान्ते च इति अनुवर्तते। इति कुत्वम्? किमर्थम् क्लिन् प्रत्ययस्य कुः इत्यपि अस्ति, तेन किमर्थं न भवति इति चेत् क्लिन् प्रत्ययस्य इति कुत्वस्य असिद्धत्वात्। क्लिन् प्रत्ययस्य कुः इस् असिद्ध टु चोः कुः। सो इफ् देयर् इस् अ सवर्गाक्षर, यु हाव् टु अप्लै चोः कुः। What happened in Yuj is, you did Numagama and the Jakara was created, so you have Yun. In case of Yun, Chok Kuhu would not apply. Saradacharam Nasti Chetaha, Chok Kuhu is just a prohibition of Bhavati. Atayeva Sin Pratyasya Kuhu Iti Khrutam. Yuj is Dham. Satrapi Chok Kuhu is Yeva Bhavet. You know, you were right. So you have Yuj is Dham. And there is no numagama, it has to be chokh kuhu and not klin pratyayasya kuhu. Yeah, so I was wrong when we were talking about yuj dhyam. So for chokh kuhu iti kutvam bhavativa, klin pratyayasya kuhu iti kutvam bhavativa iti prashnaha. Yadyati klin pratyayasya kuhu iti vishesha vihitam tathapi asiddham. Klin pratyayasya kuhu is told later and it is asiddha to chokh kuhu. So wherever chokh kuhu can apply, it has to apply and not can suggest it. So yuju bhyam, yuju su ityadishu shokuhu ityane naiva kuttam karaniyam. Gakarasya sthane gakaraha, it apply shokuhu. Okay, and same is the case here. Sin rate ityane iti kuttrasya asidhatvat shokuhu ityane kuttam bhavati. So yuju, please correct the prakriya in previous thing. I'll correct it in my slides later. सुयुज् सु अज्ञाभ्य दीर्घाति प्रक्तम् हल इत्यनेन सुप्रत्ययस्य लोपः, चोकुः इति दकारेण दकारस्य ककारे कृते सुयुग्, वामसाने इति विकल्पेन शर्त्रे सुयुक् सुयुक् सुयुग् इति रूपद्वयम्। सुयुजौ सुयुजः, सुयुक् सुयुक् सुयुजौ सुयुजः अजादिषु प्रत्ययेषु किमपि न भवति। नुमागमः नास्ति असमासे इति उक्तत्वा अन्यत् किमपि न भवति। पदान्तत्वाभावात् झल्परकत्वाभावाच्च चोक्कुः इति कुत्वमपि न भवति। एवं रूपाणि सुयुजं सुयुजौ सुयुजः, सुयुजा सुयुग्भ्यां सुयुग्भिः। आल् अदर् रूपा अदस्येम् एक्सेप्ट् द फस्ट् वन्, तत्र युङ् इति भवति, नुमागमः भवति एक्सेप्ट् द फस्ट् फैव्। सर्वनामस्थानेषु केवलस्य युज् इति प्रातिपदिकस्य नुमागमः भवति, सुयुजे इति समासे कृते नुमागमः न भवति इत्येव विशेषः. तदानीम् अत्र अन्यः प्रश्नः उत्थाप्यते. लिख्यते हि युज् इत्यनेन कः धातुः स्वीक्रियते इति प्रश्नः. युजिर् योगे इति धातुः अस्ति, युज समाधौ इत्यपि धातुः अस्ति, कस्य ग्रहणम् इति प्रश्नः. युजेः इति धातुपाठपठित इकारविशिष्टस्य अनुकरणम् न तु इकारनिर्देशः. धातुपाठे यस्य धातोः इकारः श्रूयते तस्य इदम् अनुकरणम् इति उच्यते. सो हि सेज् युजि उभयत्र उष्णिक् अञ्चु युजि इति उच्यते. युजेः इत्यत्रापि युजि इत्येतदस्ति. सः इकारः धातुपाठे यस्य धातोः इकारः अस्ति तस्य अनुकरणम् नाम युजिर् योगे इत्यत्र इकारः श्रूयते तस्यैव अनुकरणम् इति उच्यते, न तु इकानिर्देशः. इक्ष्टिपौ धातुनिर्देशे इति अस्ति. इक् ष्टिप् इति द्वौ प्रत्ययौ धातुनिर्देशे उपयुज्यते. उदाहरणार्थं गमिः इति उच्यते. गमधातोः इक् प्रत्यये कृते गमि इति भवति. गमिः नाम गमधातुः. एवं वदिः नाम वदधातुः इति इका धातुनिर्देशः क्रियते. एवं स्टिपा स्टिप् इत्यत्र सि इति भवति. भवतिः इत्युक्ते भूधातुः. अस्थिः इत्युक्ते असुधातुः. एवम् इक् स्टिप् इति द्वौ प्रत्ययौ धातुनिर्देशे उपयुज्यते. वि यूस् बोत् दीस् टु इण्डिकेट् धातु. धातु प्लस् इक् इट् जस्ट् मीन्स् द धातु. सिमिलर्ली द स्टिप्. नौ हियर् इफ् यु डू द इक् फार् युज् धातु इट् विल् बि युजिः. अत्र इकारनिर्देशः वा धातुपाठे इकारः अस्ति इति दर्शयितुं वा. बिकास् वेनेवर् इट् इस् इक् निर्देश इट् डस् नाट् मीन् दट् इन् द धातुपाठ इट् केरीस् इकार. वदिः मीन्स् वदधातु. वदधातु डस् नाट् हेव् एन् इकार इन् धातुपाठ. सिमिलर्लि गमिः गमुल गतौ इति धातुः, तत्र इकारः नास्ति. सो दिस् ई इस् बिकास् आफ् इक्ष्टिपौ धातुनिर्देशे. सिमिलर्लि यदि युजि इति इकानिर्देशः, इफ् वि कन्सिडर् दट् युजि जस्ट् मीन्स् युज् धातुः, तदा किं ज्ञायते? युजि इति इकानिर्देशश्चेत् केवलं युज् धातुः इति ज्ञायते. किमनुबन्धकः? वाट् इस् द अनुबन्ध? इस् इट् युजिर् योगे आर् युज् समाधौ? युज समाधौ इति न ज्ञायते. यु वुड् नाट् बि एबल् टु डिफ्रेन्शियेट् विल् इट् अप्लै टु युजिर् योगे आर् युज समाधौ. तत्र इकानिर्देशः नास्ति. दिस् इस् नाट् इकानिर्देशः. धातुपाठे यः धातुः इकारसहितः पठ्यते, दट् धातु विच् कण्टेन्स् इकार इन् द ओरिजिनल् धातुपाठ, तस्य अयं निर्देशः. सो दिस् इस् एन् अनुसरणम् आफ् दट्. विच् मीन्स् दिस् सूत्र विल् अप्लै टु दट् धातु विच् कण्टेन्स् एन् इकार इन् द धातुपाठ. तेन इह न युज्यते समाधत्ते इति युक्. युज् युज समाधौ इति अकारः अस्ति, इकारः नास्ति. सो दट् फोर् दट् धातु इफ् यु डू इफ् यु आर् ट्रैङ्ग् टु डु अ प्रक्रिया, एतयोः सूत्रयोः प्रवृत्तिः न भवति. युज समाधौ इति दैवादिकः आत्मनेपदि युज्यते युज्यते युज्यन्ते इत्यादीनि रूपाणि. प्रत्युद्बधुक् इति सूत्रे, युजेरसमासे इति सूत्रे च इकारानुबन्धस्यैव युज धातोः नाम युजिर् योगे इति धातोः ग्रहणम् न तु अस्य युज समाधौ इति धातोः. सो क्विन् प्रत्ययः न भवति. युज समाधौ इति धातोः क्विन् प्रत्ययोऽपि न भवति, सुमागमोऽपि न भवति. बोत् दीस् कार्यस् विल् नाट् अप्लै. इट् इस् हेव् अ कृप् प्रत्यय. कर्तरि कृप् प्रत्ययः क्रियते. युज् इति प्रातिपदिकं, युक् युजौ युजः इत्यादीनि रूपाणि. सो यु विल् हेव् चोक्कुः वेर् एवर् देर् इस् जकार. युज् सु प्रत्ययस्य लोपे युज् इति जातं. तस्य चोक्कुः इत्यनेन कुत्र कृते युग् युक् इति रूपद्वयं. युजौ युजः, युजं युजौ युजः, युजा युग्भ्यां युद्धिः. सर्वनामस्थाने एव विशेषः, समागमः नास्ति इत्येव विशेषः. किं प्रत्ययोपि नास्ति अस्ति. Chokkuh is not specific for either Kvin or Kut. Chokkuh is a general sutra. Wherever there is Kavargachara, followed by Ghal or Padanta, you will get Kavargachara. It need not be for Kvin or Kut. It does not specify any Kutaya. Only Kvin Kutayashya Kuhu says, even if it is not a Kavargachara, if it is a Kvin Kutayanta, you will get a Kutva. Any other question? Address Chagayamaha, Agre Jakarantaha, Navarchyante. There are a few more Jakarantas. We study. Stop here today. येनाक्षरसमाम नायम अधिगम्य महेश्वरात् उत्तमं व्याकरणं प्रोक्तं तस्मै पाणिने ये नमः वाक्यकारं वररुचिं भाष्यकारं पतञ्जलिं पाणिनिं सूत्रकारं तत्त्वं प्रोक्तं निक्रयम् निक्रयम् नमस्कृत्य तदुपीश्वरी भाव्य च व्याकरण सिद्धांत कौमुदीयं विदस्यते।